शारदाय हरिते त्रोणी रजते त्रिण्ययसी त्रीणि तपसा विष्ठितानि अग्निः सूर्यश्चन्द्रमा भूमिरापो दौरन्तरिक्ष प्रदिशो दिशश्च आर्तवा ऋतुभिः संवेदाना अन्येन मा त्रिवृता पारयन्तु त्रयः पोषा स्त्रीवृति श्रयन्ता मनत्तु पूषा पयसा कृतेन अन्नस्य भूमा पुरुषस्य भमा भूमा पशूनां तैः श्रयन्ता इममादित्या वसूना समुक्षते ममग्ने वर्धय वावृधानः इममिन्द्रसं सृजवीर्येणास्मिन् त्रिवृच्छ्रयता पोषयिष्णुः विश्वभृदग्निः पिपर्त्वयसा सजोषः विरुद्भिटे अर्जुनम् संविधानम् दक्षं दधातु सुमनस्य मानम् त्रेधा जातं जन्मनेदं हिरण्यमग्निरेकं प्रियतमं बभूव सोमस्यैकं हिंसितस्य परापतत् अपामेकं वेधसाम्रेत आहुस्तत् ते हिरण्यं त्रिवृदस्त्वायुषे त्रायुष जमदग्नेः कश्यपस्य त्रायुषम् त्रिण्यायुषीतेकरम् त्रयः सुपर्णा स्त्रीवृता यदा यन्नेकाक्षरम्भि सम्भूय शक्रः प्रत्योहन् मृत्युं मृतेन साकमन्तर्दधाना दुरितानि विश्वा अर्जुनं भूम्या अयस्मयं पातु प्रागादेव पुरा अयम् इमास्ति स्त्रो देवपुरास्तास्त्वा रक्षन्तु सर्वतः तास्त्वं बिभ्रत् वर्चस्व्युत्तरो विशतां भव अहर्जातस्य यन्नाम तेन वाति श्रुतामसि ऋतुभिष्ट्वार्थवैरायुषे वर्चसे।